इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना गयानगरे प्रायः 13,000 कोटिरूप्यकाणां बहुविधविकासपरियोजनाः उद्घाटिताः। ऑपरेशन सिन्दूर इत्यनेन भारतस्य रक्षाकार्यनीतेः नूतनः मार्गः अंकितः इति च कथितम्। रक्षामन्त्री राजनाथसिंहः संयुक्तराष्ट्रसंघस्य महिलासैन्य अधिकारिभिः सह मिलितवान् लैंगिकसमानतायाः विश्वशान्तेश्च विषये संयुक्तराष्ट्रसंघस्य प्रयत्नेभ्यः भारतस्य समर्थनस्य प्रतिज्ञां ज्ञापितवान्। भारते चीनदेशस्य राजदूतः शू फेहोंग इत्येषः आशां प्रकटितवान् यत् प्रधानमन्त्रिणः मोदिनः SCO इति शिखरसम्मेलने आगमनं भारतचीनद्विपाक्षिकसम्बन्धेषु नूतनीकरणं जनयिष्यतीति। अपि च श्रीलंकादेशस्य पूर्वराष्ट्रपतिः रनिल विक्रमसिंघे इत्येषः सार्वजनिकधनस्य उपयोगमुद्दिश्य बन्धितः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य अवदत् यत् ऑपरेशन सिन्दूर इत्यनेन भारतस्य रक्षाकार्यनीतेः नूतनः मार्गः अंकितोऽस्ति। श्रीमोदी अवदत् यत् आतंकवादं भारते प्रेषयित्वा आक्रमणस्य योजनाञ्च कृत्वा वा कोऽपि पलायितुं न शक्नोति। सः अवदत् यत् आतंकवादिनः भूमिस्थाः भूत्वा प्रच्छन्नाः स्युश्चेदपि भारतस्य क्षिपण्यस्त्राणि तान् अन्विष्यन्ति।
ऑपरेशन सिन्दूर ने भारत की रक्षा नीति की नई लकीर खींच दी है। अब भारत में आतंकवादी भेजकर हमले करा के कोई बच नहीं सकेगा। आतंकवादी चाहे पाताल में क्यों न छिप जाए, भारत की मिसाइलें उन्हें दफन करके रहेगी।
अद्य बिहार राज्यस्य गयानगरे 12,000 कोटिरूप्यकाणां बहुविधविकासपरियोजनानां शिलान्यासोद्घाटनानन्तरं प्रधानमन्त्रिणा एतदुक्तं। विद्युत्मार्गः, स्वास्थ्यं, नगरीयविकासः, जलापूर्तिः इत्याद्यः बहुविधक्षेत्राणां परियोजनाः सन्ति। श्रीमोदी गया दिल्ली नगरयोर्मध्ये अमृत भारत एक्सप्रेस रेलयानस्य वैशाली कोडेरमा नगरयोः मध्ये बौद्ध सर्किट रेलयानस्य च ध्वजप्रदर्शनपूर्वकं शुभारम्भं कृतवान्। देशे उत्कोचग्रहीतॄणां वर्धमानसंख्या गभीरचिन्तायाः विषयः अस्तीति श्रीमोदी अवोचत्। बिहारस्य सीमावर्तीनां मण्डलानां जनसांख्यिकीय विवरणं द्रुतगत्या परिवर्तते इति च सः अधोरेखितवान्। उक्तवान् च यत् सर्वकारेण राष्ट्रस्य भविष्यनिर्माणस्य दायित्वम् उत्कोचग्रहीतृभ्यः न दातुं संकल्पः कृतोऽस्तीति। प्रधानमन्त्री अवदत् यत् बिहारस्य द्रुतगत्या विकासः केन्द्रस्य NDA सर्वकारस्य प्रमुखप्राथमिकता अस्ति। अद्य बिहारे आरब्धाः परियोजनाः बिहारस्य उद्योगान् सुदृढं करिष्यन्ति, युवभ्यश्च नूतनवृत्त्यवसराञ्च कल्पयन्तीति सः अवदत्। विगतैकादशवर्षेषु सम्पूर्णे देशे 4 कोट्यधिकेभ्यः निर्धनपरिवारेभ्यः स्थायिगृहाणि दत्तानि। बिहारराज्ये च 38,00,000 गृहाणि निर्मितानीति श्रीमोदी उल्लिखितवान्। सः अवदत् यत् NDA इत्यस्य द्विगुणितचालकशक्तियुतं प्रशासनं बिहारराज्ये रेलमार्गस्य विकासाय द्रुतगत्या कार्यं कुर्वदस्ति।
गया जी के तेज विकास के लिए बिहार की डबल इंजन सरकार लगातार काम कर रही। एक ही दिन में 12,000 करोड़ रुपए की परियोजनाओं का लोकार्पण हुआ है। इनमें ऊर्जा, स्वास्थ्य और शहरी विकास के जुड़े कई बड़े प्रोजेक्ट्स हैं। इनसे बिहार के उद्योगों को ताकत मिलेगी और युवाओं के लिए रोजगार के नए अवसर भी बनेंगे।
प्रधानमन्त्री नरेन्द्र मोदी कोलकातायामपि 2,500,000,000 कोटिरूप्यकाणां विभिन्न विकास परियोजनानां शिलान्यासम् उद्घाटनञ्च अकरोत्। अत्रावधौ प्रधानमन्त्री त्रयाणां मेट्रो सेवानां शुभारम्भमपि विहितवान्।
कोलकाता जैसे हमारे शहर भारत के इतिहास और हमारे भविष्य दोनों की समृद्ध पहचान है। आज जब भारत दुनिया की तीसरी सबसे बड़ी इकोनॉमी बनने की तरफ आगे बढ़ रहा है, तब दमदम कोलकाता इन शहरों की भूमिका बहुत बड़ी है। इसलिए आज के इस कार्यक्रम का संदेश मेट्रो के उद्घाटन और हाईवे के शिलान्यास से भी बड़ा है। यह आयोजन इस बात का प्रमाण है कि आज का भारत अपने शहरों का कैसे कायाकल्प कर रहा है।
प्रधानमन्त्रिणा हावड़ा मेट्रो स्थानकोपरि एकस्य उपमार्गस्य उद्घाटनं चापि विहितम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। रक्षामन्त्री राजनाथसिंहः अवदत् यत् भारतं संयुक्तराष्ट्रसंघस्य शान्तिरक्षाकार्येषु महिलानां सहभागित्वस्य एकीकरणस्य च प्रबलसमर्थकः अस्तीति। श्रीसिंहः अद्य नवदेहल्यां संयुक्तराष्ट्रसंघस्य महिलासैन्याधिकारिभिः सह वार्तालापं कुर्वन् एतद् उक्तवान्। सः अवदत् यत् देशस्य सशस्त्रदलेषु शान्तिरक्षादलेषु च महिलानां सहभागितां प्रोत्साहयितुं सर्वकारः नीतिं सुदृढं कुर्वन् अस्ति। येन तेषां नेतृत्वस्य सेवायाश्च समानः अवसरः भवेदिति सुनिश्चितं भवति। सर्वोच्चन्यायालयेन दिल्ली एनसीआर क्षेत्रे परित्यक्तशुनकानां पुनर्वाससम्बद्धनिर्देशेषु संशोधनं विहितम्। स्वकीये नूतनादेशे विक्रमनाथः, सन्दीपमेहता, एन.बी. अंजारिया इत्येतेषां न्यायाधीशत्रयाणां पीठेन निर्दिष्टं यत् रेबीज रोगग्रस्तान् उग्रस्वभावकाञ्च शुनकान् विहाय अन्येषां परित्यक्तशुनकानां रोगप्रतिरोधक टीकाकरणं बन्ध्याकरणञ्च कृत्वा ते स्वस्वक्षेत्रेषु च विमोचनीयाः इति। चीनदेशस्य राजदूतः शू फेहोंग इत्ययम् अवदत् यत् गतवर्षे कजन नगरे उभयदेशयोः नेत्रोः मेलनात् परं भारतचीनदेशयोः सम्बन्धेषु निरन्तरं परिष्कारः विकासश्च समजायत। नवदेहल्यां 25-अधिक-2000तमं SCO शिखरसम्मेलनं सम्बोधयन् श्री फेहोंग इत्येषः अवदत् यत् द्वयोः देशयोः मध्ये आदानप्रदानं सहकारश्च क्रमेण विविधक्षेत्रेषु पुनः आरभत। एतस्य परिणामस्वरूपं सकारात्मकपरिणामाः प्रादुर्भूतास्सन्ति। सः आशां प्रकटितवान् यत् SCO शिखरसम्मेलने प्रधानमन्त्रिणः श्रीमोदिनः यात्रा भारत-चीन-द्विपाक्षिकसम्बन्धान् नूतनगतिं प्रदास्यतीति। श्रीलंकादेशस्य पूर्वराष्ट्रपतिः रनिल विक्रमसिंघे इत्येषः कोलंबो नगरे अपराध अन्वेषण विभागस्य समक्षम् उपस्थितः अभवत्, अनन्तरञ्च आरक्षकैः निगडितः। श्री विक्रमसिंघे इत्येषः लंडन नगरस्य व्यक्तिगत यात्रायाः व्ययं पूरयितुं राज्यधनस्य उपयोगम् अकरोदिति आरोपैः सह एतत् निगडनं सम्बद्धमस्ति। ग्रुप कैप्टन शुभांशु शुक्लः अद्य राष्ट्रपति भवने राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह मिलितवान्। ग्रुप कैप्टन शुक्लः राष्ट्रपतिना सह अंतरिक्षस्य स्वानुभवान् व्यंजयत। अवसरेस्मिन् ग्रुप कैप्टन प्रशांत बालकृष्णन नायरः, ग्रुप कैप्टन पुण्यश्लोक बिस्वालः, इसरो इत्यस्य अध्यक्षः, अंतरिक्ष विभागस्य सचिवश्च डॉक्टर बी नारायणः, मानव अंतरिक्ष उड्डयन केन्द्रस्य निदेशकः दिनेश कुमार सिंहश्च उपस्थिताः आसन्। देशस्य सेमीकंडक्टर विन्यास क्षमतां वर्धयितुं सर्वकारेण विन्यास संबद्ध प्रोत्साहन योजनान्तर्गतं 23 चिप विन्यास परियोजनाः अनुमोदिताः सन्ति। इलेक्ट्रॉनिक्स अथ आईटी मंत्रालयः अवदत् यत् 270 संस्थाः स्वकीय चिप विन्यास परियोजनाभ्यः उद्योग मानक इलेक्ट्रॉनिक डिजाइन ऑटोमेशन इति उपकरणानि प्राप्तवन्तः। अद्य बिहार, पूर्वी राजस्थान, पश्चिम बंग, गंगातटीय क्षेत्रेषु सहैव गुजरात, झारखंड, पूर्वोत्तर भारत राज्यानां कतिपय भागेषु च महती वृष्टिः भविष्यतीति ऋतु विज्ञान विभागेन अनुमितम्। दिल्ली एनसीआर, हरियाणा, चंडीगढ़, जम्मू कश्मीर, सिक्किम, गोवा, मध्य प्रदेशेषु चापि आगामिषु 2-3 दिवसेषु विभागेन अतिवृष्टिः संभाव्यते इति उक्तमस्ति। इति वार्ताः।